नमस्कारः. अद्यतनविषयः अस्ति स्वरसन्धिः. पुस्तकमस्ति गीताप्रवेशः प्रथमभागः. अत्र पुस्तके त्रयोदशतमे पुटे अस्ति स्वरसन्धिः इति विषयः. तस्मात् आरभ्य अद्य किञ्चित् पुनरावलोकनं करिष्यामः. इदानीम् अत्र राधिका भगिनी भवती पुस्तकात् आरम्भं करोति वा अत्र स्वरसन्धिः इत्यस्य आरभ्य.
एकनिमिषं महोदय, मम पुस्तकं स्वीकृत्य आगच्छामि इदानीम्.
अस्तु अस्तु. सरला भगिनी भवती करोति वा?
आं महोदय.
विद्या भगिनी आगतवती वा? अस्तु अस्तु. अस्तु अस्तु भगिनि. अत्र पुस्तके त्रयोदशतमे पुटे स्मः भगिनि. इदानीम् अत्र स्वरसन्धिः तस्मादारभ्य पठिष्यामः. करपत्रमपि पुरतः स्यात् सर्वेषां पार्श्वे. स्वरसन्धि इति करपत्रमस्ति किल महोदयस्य जालपुटे, तदपि पुरतः स्यात् इदानीम्. अस्तु, आरम्भं करोतु भगिनि सरला भगिनि.
अस्तु. स्वरात् स्वरपरे स्वरसन्धि भवति. एषः अष्टविधः: सवर्णदीर्घसन्धि, द्वितीयगुणसन्धि, तृतीयवृद्धिसन्धि, चतुर्थयणसन्धि, पञ्चम यान्तवान्तदेशसन्धि, षष्ठं पूर्वरूपसन्धि, सप्तमी परस्वरूपसन्धि, अष्टं प्रकृतिभावसन्धि. सः सर्वोऽपि अत्र सोदाहरणं क्रमशः निरूपिता सन्ति अस्ति. ततः सावधानं पठत. स्वरात् स्वरपरे स्वरसन्धि इत्य अर्थः अस्ति. स्वरात् इति पञ्चमी विभक्ति, कार्यं तस्य परे भवति. स्वरे अस्ति सप्तमी विभक्ति, कार्यं तस्य पूर्वं भवति. स्वरात् स्वरपरे स्वरसन्धि भवति इति अस्ति सवर्ण स्वरसन्धि. पूर्वपद्यस्य अन्तिमवर्णस्वरम् अस्ति. तत् यदि योजयति द्वितीयपदं, तस्य आदौ स्वरमस्ति. स्वरात् स्वरे परे इति स्वरसन्धि. तस्य अष्टविधा इदानीं वयं पठितवन्तः.
अस्तु भगिनि. इदानीम् अत्र सवर्णदीर्घसन्धिः, तदपि पठति वा एकवारम्?
ओके.
अत्र
सवर्णदीर्घसन्धि अभाग एतानि उदाहरणानि परिशीलयत. अव्ययस्य योग अस्य अव्ययास्य. तत्र प्रथम अव्ययस्य तस्य अन्तिमस्वरः अस्ति अकार. द्वितीय अस्य वर्ण अस्य पदं तस्य प्रथमवर्णः अस्ति अकार. अकार अकार योजयित्वा आकार आदेशः भवति. तत् भवति अव्ययास्याय. द्वितीय अस्ति
अव्ययस्यास्य. अव्ययस्य योगः अस्य अव्ययस्यास्य.
अस्तु. आधाययोग्य आत्मन. आधायस्य अन्तिमवर्ण अकार, आत्मनस्य द्वितीयवर्ण आकार. तस्य आकार अकार आकारस्थाने आकार आगच्छति. तस्य आधायात्मानः इति भवति.
तृतीयमपि करोतु.
उपदृष्टा योग अनुमना. दृष्टा अनुमन्ता.
अनुमन्ता
लैट् ओके इदानीं पुनः पठतु. उपद्रष्ट योज अनुमन्ता उपद्रष्टा आकार योज अकार आकार आदेश भवति तस्य स्थाने दश उपद्रष्टानुमन्ता इति भवति. चतुर्थमस्ति यथा योग आकाशस्थितः आकारयोग आकार पुनः यथाकाशस्थित इति भवति. एतेषु उदाहरणेषु अकार आकार इति वर्णाभ्यां परतः अकार आकारवर्णौ स्तः तत्र अकार आकारयोज्य अकार आकारवर्णयोः स्थाने आ इत्यादेश सम्पन्नः अस्ति. यदा अकार अकार प्रथमपदस्य अन्ते अस्ति द्वितीयपदस्य अन्ते आदौ अकार आकार आगच्छतु तस्य योजनेन आकार दीर्घ आकार आदेश भवति तस्य नाम अस्ति सवर्णदीर्घसन्धि.
अत्र कोऽपि प्रश्नः अस्ति वा इदानीं प्रथम चत्वारि उदाहरणेषु? अस्तु इदानीं राधिका भगिनी भवती सिद्धा अस्ति वा?
अस्मि महोदय. अग्रे पठामि वा?
पठतु भगिनि.
अस्तु एतानि उदाहरणानि परिशीलयत. श्रोत्रादीनि योगः इन्द्रियाणि श्रोतादीन् इ योगः इ इन्द्रियाणि श्रोत्रादीनीन्द्रियाणि इति इकार इकारयोगे दीर्घ ईकारः भवति. अनन्तरं उत्क्रामति ईश्वरः उत्क्रामत् इकार ईकारयोगः श्वरः उत्क्रामतीश्वरः इकार ईकारयोगे दीर्घ ईकारः भवति. अनन्तरं त्यागी योगः इति दीर्घ ईकारः ह्रस्व ईकारः योगे दीर्घ ईकारः सम्पन्नः भवति त्यागीति. गौरी योगः ईक्षते ईकार ईकारयोगे दीर्घ ईकारः भवति गौरीक्षते इति. एतेषु उदाहरणेषु इकार ईकार इति वर्णाभ्यां परतः इकार ईकारवर्णौ स्तः तत्र इकार ईकार अथवा इकार ईकारवर्णयोः स्थाने ईकार इति आदेशः सम्पन्नः अस्ति.
अत्र किम् अभवत् भगिनी एकवारं स्वस्य वाक्येन वदति वा?
अस्तु अत्र पदद्वयं स्तः सर्वेषु उदाहरणेषु एकस्मिन् पदस्य अन्ते इकारः वा अथवा ईकारः वा भवति द्वितीयपदस्य आदौ इकारः वा अथवा ईकारः वा भवति सर्वेषु उदाहरणेषु इकार ईकारः वा अथवा ईकार इकारः वा अथवा इकार इकारः वा अथवा ईकार ईकारः वा सर्वेषु ईकारः एव भवति अन्तिमवर्णः इति
आदेशः भवति इति
आदेशः भवति. आदेशः
अस्तु. इदानीं विद्याभगिनी भवती अग्रे पठति वा?
एतद् उदाहरणं परिशीलयत. तेषु योगः उपजायते अत्र तेषु इति पदान्ते उकारः अस्ति उपजायते इति पदस्य आदौ उकारः अस्ति उकारयोगः उकारः ऊकारः दीर्घ ऊकारः आदेशरूपेण आगच्छति अतः तेषूपजायते इति अस्ति. एतस्मिन् उदाहरणे उ इति वर्णात् परतः ऊ वर्णः अस्ति तत्र उयोगः ऊ वर्णयोः स्थाने दीर्घ उकारः इत्यादेशः सम्पन्नः अस्ति. अ इत्येताभ्यां अ इत्येतयोः वर्णयोः परयोः आकारः इ इत्येताभ्याम् इ इत्येतयोः परयोः ईकारः उ इत्येताभ्याम् उ इत्येतयोः परयोः ऊकारः ऋ इत्यस्मात् ऋ इत्येतयोः परयोः ऋकारः पूर्वपरयोः स्थाने एकः आदेशो भवति. तदेव अस्ति कोष्टके अपि. अ आ इत्येते सवर्णाः इ इत्यादयः अपि सवर्णाः. अस्मिन् सन्धौ सवर्णयोः स्वरयोः स्थाने तत्तत् वर्णस्य दीर्घस्वरः आदेशः भवति, अतः सवर्णदीर्घसन्धिः इति अस्य नाम. यथा वयं उदाहरणेषु दृष्टवन्तः तथा एव यदि आकारः अथवा दीर्घ आकारः अनन्तरम् अकारः अथवा दीर्घ आकारः अस्ति चेत् द्वयोः स्थाने दीर्घ आकारः आदेशरूपेण आगच्छति. तथैव प्रथमम् ईकारः अथवा ईकारः अस्ति अथवा द्वितीयस्थले ईकारः अथवा ईकारः अस्ति चेत् पूर्वपरयोः स्थाने दीर्घ ईकारः आदेशः भवति. तथा एव उकारस्य अपि विषये, तथा एव ऋकारस्य अपि विषये, यदि प्रथमं ऋकारः अथवा ऋकारः, द्वितीयं ऋकारः अथवा ऋकारः अथवा ऋकारः अस्ति चेत् तदा दीर्घ ऋकारः आदेशरूपेण आगच्छति. तदेव सवर्णदीर्घसन्धिः इति उच्यते.
इति उच्यते. अस्तु, अत्र इदानीं पर्यन्तं समीचीनमेव किल, अत्र कोऽपि प्रश्नः नास्ति इति चिन्तयामि. इदानीम् अत्र करपत्रे एकवारं सवर्णदीर्घसन्धिः इति अस्ति किल, तत् सूत्रं पठिष्यामः. सरला भगिनी भवती करोति वा अत्र करपत्रात्?
सूत्रेषु विभक्ति अर्थ षष्ठीविभक्तिस्थाने सप्तमीविभक्तिपूर्वकार्यं पञ्चमीविभक्तिपरकार्यं प्रथमाविभक्ति आदेश आगमः नामकरणं. व्याकरणरीत्या विभक्त्योः अर्थं भिन्ना सन्ति. षष्ठीविभक्ति अर्थम् अस्ति स्थाने, तस्य स्थाने अन्य पदम् आगच्छत् वर्णम् आगच्छति. सप्तमीविभक्ति पूर्वकार्यं, तस्य आदौ कार्यं वा विकारं भवति. पञ्चमीविभक्ति कार्यं तस्य परे भवति. प्रथमाविभक्ति यदा आदेश आगम वा नामकरणं भवति प्रथमा विभक्ति अस्ति. सवर्णदीर्घसन्धिः, अकः सवर्णे दीर्घः, अकवर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक एकादेशः स्यात्. अक प्रत्याहार अ इ उ ऋ लृ. अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तम्. त्रिपदमिदं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्ति एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घसंहितायाम्. अत्र अकवर्णात् सवर्णे अचि परे इत्युक्ते अक प्रथम पदस्य स्वर यदि अक वर्णे वर्णे प्रत्याहारे आगच्छति, अकवर्णप्रत्याहारे भवति अ इ उ ऋ ल एते वर्णाः, एते स्वराः सन्ति. तस्य परे अचि, अचि इति प्रत्याहारे सर्वे स्वराः आगच्छन्ति. अ इ ऋ इ ऋ ल ए औ सर्वे स्वराः पुनः वदामि. अ इ उ ऋ ल ए औ ए औ इति सर्वे स्वराः अचि प्रत्याहारे सन्ति. तस्य द्वितीयपदस्य आदौ यदि अच्य प्रत्याहारे कोऽपि स्वरम् अस्ति तस्य सवर्णदीर्घ तस्य स्वरस्य सवर्णदीर्घस्वर आदेश आगच्छति पूर्वस्वरस्य परस्वरस्य तयोः स्थाने आदेश दीर्घ सवर्णदीर्घ आदेश भवति.
एकः प्रश्नः अत्र भगिनि. प्रथमं तु अक्वर्णः, प्रथमपदस्य अन्तिमवर्णः अक्वर्णः, द्वितीयपदस्य प्रथमवर्णः अच्वर्णः. इदानीं कीदृश अच्वर्णः भवेत् द्वितीयपदस्य आरम्भौ?
सवर्ण अच्वर्णः
भवति. सवर्ण अच्वर्णः अस्ति चेदेव
दीर्घ भवति. यदा अकार 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 आकार यदा वयं उदाहरण पुस्तके पठितवन्तः अव्यस्य योग अस्य सवर्णदीर्घ श्रोत्रादीनि इकार इन्द्रियाणि इकार तस्य सवर्णदीर्घ ईकार भवति तेषु उपजायते उकार उकार तस्य सवर्णदीर्घ ऊकार भवति.
अग्रे पठिष्यामः अत्र सवर्णम् इत्युक्ते किम् इति. एकवारम् अत्र अनुवृत्तिसहितसूत्रम् एकवारं पठित्वा किञ्चित् प्रतिपादयति वा अत्र अकः इत्युक्ते किं, सवर्णे अचि पूर्वपरयोः, एकः दीर्घः संहितायाम्, एते सर्वे किञ्चित् अत्र प्रतिपादयन्ति.
अकः अकः प्रत्याहारः अस्ति, तस्मिन् प्रथमपदस्य अन्ते कोऽपि वर्णः आगच्छति. तस्य संहितायां सन्धि विषये सवर्णे अचि तस्य परे यदि स्वर अचि प्रत्याहारे अस्ति प्रथमवर्णस्य सवर्ण स्वर अस्ति तस्य पूर्वं परयोः स्थाने तयोः स्थाने एकः दीर्घः सवर्णदीर्घः स्वर आदेशः भवति.
अत्र अकः इत्युक्ते तस्य विभक्ति का?
अकः विभक्ति अस्ति पञ्चमी विभक्ति, अचि अस्ति सप्तमी विभक्ति. सो अकः प्रथम पदस्य परं कार्यं भवति, अचि सप्तमी विभक्ति तस्य पूर्वं पूर्वपरयोः तस्य स्थाने एक
पूर्वपरयोः अत्र अचि
सप्तमी विभक्ति अस्ति षष्ठी विभक्ति पूर्वपरयोः स्थाने
दीर्घः इत्यस्य विभक्तिः का?
एकः दीर्घः तस्य द्वौ विभक्त्यो विभक्ति एक प्रथमा विभक्ति अस्ति तस्य
प्रथमाविभक्ति इत्युक्ते किम् अत्र अत्र अकः पञ्चम्यन्तम् अस्ति, अचि सवर्णे अचि सप्तम्यन्तम् अस्ति. अतः प्रथमपदस्य अन्तिमवर्णः अक् भवेत्, द्वितीयपदस्य आदिमवर्णः सवर्ण अच् भवेत्. तयोः स्थाने अत्र षष्ठी अस्ति, एकः दीर्घः इति आदेशरूपेण आगच्छति. संहितायाम् इत्यस्मिन् विषये किञ्चित् वदति वा भगिनि?
संहितायां सन्धिविषये यदि अतीवसामीप्यम् अस्ति द्वयोः पदयोः तत् संहितायां सन्धिविषये
सन्धिविषये अथवा संहितायां विषये. यद्यपि संहितायाम् इति सप्तमी विभक्तौ अस्ति, अत्र व्याकरणदृष्ट्या नास्ति सप्तमी विभक्ति, विषयसप्तमी इति वदामः अत्र.
अस्तु
अस्तु अस्तु भगिनि, धन्यवादः. इदानीं राधिका भगिनी, अत्र सवर्णे दीर्घः इति अस्ति किल, सवर्णमित्युक्ते किं, तस्मिन् विषये एकं सूत्रमस्ति, तत् पठति वा एकवारं भगिनि?
अकः सवर्णे दीर्घः वा
तस्मात् परः अत्र तुल्यस्य प्रयत्नं
सवर्णं तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं तयोः वर्णयोः सवर्णसंज्ञा स्यात्
तालु आदीनि इत्युक्ते किं तालु आदीनि स्थानानि इत्युक्ते किं
जिह्वामूल्यकण्ठ कण्ठ इति बहूनि स्थानानि सन्ति खलु मुखे तानि स्थानानि वर्णनं अत्र अस्ति तालु आदीनि इति
यदा वर्णस्य उच्चारणं करिष्यामः तस्मिन् समये मुखस्य अन्ते जिह्वायाः स्पर्शः भवति तदाधारेण स्थानं किम् इति वदामः अत्र उदाहरणरूपेण यदि स्वरवर्णाः नयामः अकारस्य स्थानं किम्
अकारस्य स्थानं कण्ठ इति मन्ये
कण्ठः इकारस्य स्थानं
तालु
वा तालु अस्ति तालु अस्ति समीचीनमेव उकारस्य स्थानं
ओष्ठः वा
ओष्ठः अस्ति ऋकारस्य स्थानं मूर्धा अस्ति ऋकारस्य स्थानं मूर्धा अस्ति ऋकारस्य स्थानं दन्तः ऋकारस्य स्थानं दन्तः किञ्चित् दन्तं प्रति स्पर्शः भवति अत्र अतः मुखस्य अन्ते कश्चन स्थानं भवति यदा किमपि वर्णस्य उच्चारणं करिष्यामः यदि कवर्गीयव्यञ्जनानि नयामः तेषां स्थानं किम् अस्ति कण्ठः कवर्गीयव्यञ्जनानां कण्ठः च वर्गीयव्यञ्जनानां स्थानं अन्य कोऽपि साहाय्यं तालु अस्ति च
टवर्गीयव्यञ्जनानां
मूर्धा अस्ति किल यथा ट वदामः टकारः तु टकारः टवर्गीयव्यञ्जनानां स्थानमस्ति मूर्धा तवर्गीयव्यञ्जनानां स्थानमस्ति दन्ताः यथा भवती उक्तवती अनन्तरं पवर्गीयव्यञ्जनानां स्थानमस्ति ओष्ठः अस्ति अतः प्रत्येकं वर्णस्य मुखस्य अन्ते कश्चन स्थानमस्ति तदस्ति तालु आदीनि स्थानानि अनन्तरमस्ति आभ्यन्तरप्रयत्नाः द्विप्रकारकः मानद्वयम् इति वदामः अत्र मानद्वयम् अस्ति अत्र तालु आदीनि अथवा आभ्यन्तरप्रयत्नाः अत्र किं वदति सूत्रं तुल्यास्य प्रयत्नं सवर्णम् इत्युक्ते अत्र प्रयत्नं करोति वा भवती एव
प्रयत्नं करोमि
अग्रे पठतु अस्मिन् परिच्छेदे एव अग्रे पठतु किञ्चित्
अस्तु सवर्णसंज्ञा विधायकसूत्रं तुल्यं नाम सदृशः सवर्णसंज्ञा इति विधायकसूत्रम् इति उच्यते अत्र सो अतः एतत् सूत्रं संज्ञा डेफिनेशन् इच्छति खलु
संज्ञासूत्रम् अथवा नामकरणं
संज्ञासूत्रम्
इत्युक्ते सवर्णम् सवर्णम् इत्युक्ते किम् इति एतत् सूत्रं वदति सवर्णं किमर्थं तस्य आवश्यकता अस्ति इत्युक्ते पूर्वतनसूत्रे अकः सवर्णे दीर्घः अत्र सवर्णस्य प्रसक्तिः अस्ति तस्मिन् सूत्रे तु सवर्णः कः इति किमपि न उक्तं किल अतः एतत् संज्ञासूत्रं सवर्णम् इत्युक्ते किम् इति वदति अग्रे वदतु भगिनि
अस्तु तुल्यः नाम सदृशः अस्ति आस्याम् अस् नत् नाम मुखे सञ्जायते यत् तुल्यं च तुल्यञ्च तुल्यौ आस्यञ्च प्रयत्नञ्च आस्यप्रयत्नौ तुल्यौ आस्यप्रयत्नौ ययौ तुल्यास्य प्रयत्नं द्वन्द्वगर्भः बहुव्रीहिः अस्तु अकार इति उच्चारणे उच्चारणम् आवयोः कण्ठात् आगच्छति अतः इकार इति कण्ठात् न आगच्छति अतः अकार इकार सवर्णः न इति
अत्र सवर्णम् इत्यस्मिन् विषये अत्र विषयद्वयम् अथवा मानद्वयम् उपयोगं भवति प्रथममानम् अस्ति स्थानं मुखस्य अन्ते यत् स्थानमस्ति तदस्ति द्वितीयमस्ति आभ्यन्तरप्रयत्नः आभ्यन्तरप्रयत्नः इत्युक्ते अत्र द्वितीय परिच्छेदे किञ्चित् दत्तमस्ति अत्र एकवारं पठतु भगिनी अत्र वर्णद्वयं यदा अत्र विषयद्वयम् अत्र तुल्यं विषयद्वये भवेत् तदानीमेव वर्णद्वयस्य सावर्ण्यं भवति इति नो चेत् तथा न भवति यथा भवती उक्तवती अकारः कण्ठवर्णः इकारः तालुवर्णः अतः स्थानं भिन्नम् अकारस्य स्थानं कण्ठः इकारस्य स्थानं तालुः अतः अत्र किमपि साम्यं नास्ति द्वयोः मध्ये अतः अकार ईकारः द्वयोः अपि तेषां सवर्णं न भवति द्वयोः तयोः सवर्णं न भवति परन्तु सवर्णविषये विषयद्वयस्य आवश्यकता अस्ति प्रथममस्ति स्थानं किम् इति द्वितीयमस्ति आभ्यन्तरप्रयत्नः आभ्यन्तरप्रयत्नाः अपि अत्र दत्तमस्ति आभ्यन्तरप्रयत्नाः इत्युक्ते अत्र स्पृष्टः ईषत् स्पृष्टः ईषद् विवृतः विवृतः संवृतः इति यदि सर्वे व्यञ्जनवर्णाः स्पृष्टाः सर्वे व्यञ्जनवर्णाः स्पृष्टाः स्वरवर्णाः विवृतः अस्तु स्वरवर्णाः विवृताः अतः
इत्युक्ते किं विवृताः इत्युक्ते
अत्र किञ्चित् प्रयत्नः भवति मुखस्य अन्ते वर्णस्य उच्चारणात् पूर्वं किञ्चित् प्रयत्नः भवति तस्य नाम स्पृष्टः इत्युक्ते किञ्चित् स्पर्शः भवति यदा क वदामः अत्र किञ्चित् स्पर्शः भवति उच्चारणात् पूर्वमेव विवृतः इत्युक्ते किञ्चित् वायुः बहिः आगच्छति एतत् सर्वं भवति अतः एते सर्वे अत्र आभ्यन्तरप्रयत्नः इति वदामः अत्र किञ्चित् इत्युक्ते मुखस्य अन्ते उच्चारणात् पूर्वं यः प्रयत्नः भवति तदस्ति विवृतः इत्युक्ते किञ्चित् यदा वदामः किञ्चित् वायुः बहिः आगच्छति स्पृष्टः इत्युक्ते अत्र किञ्चित् स्पर्शः भवति क यदा वदामः अत्र किञ्चित् स्पर्शः भवति ख तदपि किञ्चित् जिह्वायाः स्पर्श मुखस्य अन्ते भवति किल, तदस्ति स्पृष्टः. अस्तु, यदि अकारः नयामः, स्वराः सर्वे विवृताः, व्यञ्जनवर्णाः सर्वे वर्गीयव्यञ्जनाः, वर्गीयव्यञ्जनानि सर्वे सर्वाणि स्पृष्टाः. अतः इदानीं तु अकः सवर्णे दीर्घः इत्यस्मिन् सूत्रे तु अत्र स्वरस्य विषये एव अस्ति. यदि स्वराः नयामः, स्वरान् नयामः प्रथमम्, अत्र किं भवति? अकारः, इकारः, उकारः, ऋकारः, लृकारः. अकारस्य स्थानमस्ति कण्ठः, आभ्यन्तरप्रयत्नः अस्ति विवृतः. इकारस्य स्थानमस्ति तालु, आभ्यन्तरप्रयत्नः अस्ति विवृतः. अतः अकारः इकारः द्वयोः मध्ये सवर्ण्यं सावर्ण्यं नास्ति. परन्तु सर्वे अकारः इत्युक्ते ह्रस्वदीर्घप्लुतवर्णाः यः अकारवर्णाः सन्ति, ते सर्वे कण्ठवर्णाः एव, अपि च विवृताः. अतः तेषां सावर्ण्यमस्ति. तथा एव इकार ईकार ईकार तेषां मध्ये सावर्ण्यं भवति. उकार ऊकार मध्ये अपि सावर्ण्यमस्ति. ऋकार ऋकार मध्ये अपि सावर्ण्यमस्ति. परन्तु अत्र यदि अत्र पुस्तके वयं दृष्टवन्तः किल, ऋकारयोगः ऋकारः अपि ऋकारः एव भवति इति. अत्र ऋकार ऋकारमध्ये अपि सावर्ण्यमस्ति. यद्यपि ऋकारः मूर्धन्यवर्णः, ऋकारः दन्तवर्णः, मुखस्य स्थानमस्ति. परन्तु अन्य किमपि वार्तिकमस्ति, तस्य आधारेण ऋकारः अपि च ऋकारः द्वयोः मध्ये सावर्ण्यमस्ति इति वदामः. इदानीं समीचीनं वा? अतः अकारात् परः अन्य अकारः अस्ति चेत्, यदि अकारः वदामः, अत्र अकारः अत्र अष्टादश अकारस्य निमित्तमस्ति. अष्टादश अकाराणां निमित्तमस्ति अकारः. इकारः अपि तथा एव, उकारः अपि तथा एव. अतः सर्वे अकाराः तेषां मध्ये सावर्ण्यमस्ति. सर्वे ईकारः तेषां मध्ये सावर्ण्यमस्ति. तथा उकारः ऋकारः अपि. परन्तु ऋकार लुकारः द्वयोः मध्ये अपि सावर्ण्यमस्ति. एतदेव अस्ति अत्र तुल्यस्य प्रयत्नं सावर्ण्यम् इत्युक्ते अत्र सावर्ण्यं विषये अत्र मानद्वयम् इति उपयोगं करिष्यामः. प्रथममस्ति मुखस्थानं किं, द्वितीयमस्ति आभ्यन्तरप्रयत्नः कः इति. द्वयोः अपि साम्यम् अस्ति चेदेव वर्णद्वयस्य मध्ये सावर्ण्यमिति वदामः, नो चेत् तथा न वदामः. अस्मिन् विषये तु स्वरविषये एव इदानीम् अस्माकं चिन्तनम् अस्ति. अतः व्यञ्जनविषये अग्रे गत्वा परिशीलिष्यामः. इदानीं तु स्वरविषये एव. अस्तु,
बहु समीचीनं, धन्यवादः.
अस्तु अस्तु भगिनि, अत्र कोऽपि प्रश्नः अस्ति वा कस्यापि? अस्तु, इदानीं विद्या भगिनी भवती
एक प्रश्न स्पष्टीकरण, आभ्यन्तर स्पृष्ट ईशस्पृष्ट व्यञ्जन कृते भवति, विवृत स्वर कृते भवति.
अत्र स्पृष्टः इत्युक्ते वर्गीयव्यञ्जनानि, अत्र किञ्चित् अत्र मुखस्य अन्ते उच्चारणात् पूर्वं किञ्चित् स्पर्शः भवति, जिह्वायाः स्पर्श. ईषत्स्पृष्टः इत्युक्ते अत्र स्वल्पस्पृष्ट, ईषदित्युक्ते किञ्चिदेव, स्पृष्टः इत्युक्ते किञ्चित् अधिकम्, ईषत्स्पृष्टः इत्युक्ते स्वल्पम्. इयारालावा एते तु ईषत्स्पृष्टः, सर्वे स्वराः विवृतः
अस्तु.
अपि च यः ऊष्माणाः सन्ति ते सर्वे ईषद्विवृतः.
अस्तु.
किञ्चित् अत्र उष्णवायुः बहिः आगच्छति किल, अतः उष्माणः.
अस्तु
अस्तु अस्तु. विद्या भगिनी अस्ति वा भगिनि?
महोदय किं पठति तदेव अग्रे वा?
अग्रे किमस्ति, अत्र वयं कृतवन्तः किल, इदानीम् अत्र पुस्तकात् करिष्यामः भगिनि. पुस्तकात् अत्र चतुर्दशे पुटे अभ्यासः अस्ति किल.
अस्तु. सन्धि सन्धिं कुरुत विद्यार्थी योगः इव विद्यार्थीव इति भवति. अत्र ईकारः योगः ईकारः पूर्वपरयोः द्वयोः स्थाने दीर्घ ईकारः आदेशरूपेण आगच्छति. अकः सवर्णे दीर्घः इति सूत्रेण विद्यार्थीव इति भवति प्रथम उदाहरणे. द्वितीयं तासु योगः उत्तमा. तासु इति प्रथमपदस्य अन्ते उकारः, उत्तमा इति द्वितीयपदस्य आदौ उकारः अस्ति. उकारयोग उकारः ऊकारः आदेशः भवति. तासूत्तमा इति. अग्रे करोमि वा?
अग्रे तृतीयमपि चतुर्थमपि करोतु.
ब्रह्मयोग अक्षरसमुद्भवम्. ब्रह्म पदस्य अन्ते अकारः अस्ति. अक्षरसमुद्भवं पदस्य द्वितीयपदस्य आरम्भे अकारः अस्ति. अकारः योगः अकारः दीर्घ अकारः ब्रह्माक्षरसमुद्भवम् इति. प्रतिष्ठा योगः अहम्. प्रतिष्ठा इति पदस्य अन्ते आकारः अस्ति. अहम् इति पदस्य आदौ अकारः अस्ति. आकारः योगः अकारः द्वयोः स्थाने दीर्घ आकारः आदेशरूपेण आगच्छति. प्रतिष्ठाहम् इति भवति.
अत्र कोऽपि नूतनः आगतवान् वा? अन्य कोऽपि अस्ति वा इदानीं? लक्ष्मीभगिनी भवती अपि पठितुम् इच्छति वा इदानीम्? प्रायः इदानीं सरला भगिनी भवती करोतु भगिनी अग्रे.
पश्यति योग ईश्वरः. ईकार ईकार तयोः स्थाने ईकार भवति. पश्यतीश्वरः. मूढग्राहेण योग आत्मनः. मूढग्राहेणात्मनः. अकार आकार तयोः स्थाने आकार आदेशः आगच्छति. सुष्ठुः योग उच्चुः. सुष्टूच् उकार उकार तयोः स्थाने ऊकार दीर्घ ऊकार आगच्छति. मनःषष्ठानि योग इन्द्रियाणि. मनःषष्ठानीन्द्रियाणि. ईकार ईकार तयोः स्थाने दीर्घ ईकार आगच्छति.
अस्तु भगिनि, इदानीं राधिका भगिनी भवती अग्रे करोति वा? स्थूलाक्षरस्य पदस्य विच्छेदः.
अस्तु. स्थूलाक्षरस्य पदस्य विच्छेदनं कुरुत. अचिरेणाधिगच्छति. अचिरेण अधिगच्छति. आकारः अकाराकार भवति. कूर्मः अङ्गानीव सर्वशः. अङ्गानि इव. ईकारः इकार इकार भवति.
अस्तु भगिनि,
मया दक्ष
इदानीम् एकनिमिष भगिनि. इदानीं विद्या भगिनी करोति. द्वयम्
अस्तु.
किं महोदय?
तृतीयं करोतु भगिनि. तृतीयं चतुर्थं भवती करोतु.
मयाध्यक्षेण प्रकृतिः. अत्र मया योगः अध्यक्षेण. आकारः अकारः दीर्घ आकारः आदेशः आगच्छति. मया दक्षेण. मया प्रत्यक्षेण प्रकृतिः तस्याराधनम् ईहते तस्य योगः आराधनं तस्याराधनम् अकारः योगः आकारः आकारः आगच्छति तस्याराधनम् ईहते वहतीशः वहति योगः ईशः वहतीशः इकारः योगः इकारः ईकारः इकारः योगः ईकारः द्वयोः स्थाने ईकारः आदेशः
अस्तु भगिनि इदानीं सरला भगिनी भवती करोति वा
कुर्वतीति कुर्वति योग इति कुर्वतीति ईकार ईकारस्थाने ईकार आदेशः भवति
इदानीम् अत्र तत्तु सवर्णदीर्घसन्धिविषये अस्ति किल अत्र अकः सवर्णे दीर्घः इति सूत्रमस्ति अत्र अकः सवर्णे अचिपरे पूर्वपरयोः एकः दीर्घः संहितायां तदस्ति सूत्रं वयं सूत्रं पठितवन्तः अपि च अभ्यासमपि कृतवन्तः इदानीं गुणसन्धिविषये पठिष्यामः भवती एव करोतु सरला भगिनी
गुणसन्धिः
प्रश्नः अस्ति कुर्वति इति अत्र द्वे रूपे स्तः वा कुर्वति ईकारः ईकारः दीर्घ ईकारः अपि च कुर्वती योगः इति अथवा
सरला भगिनी भवती किम् उक्तवती अहं सम्यक्तया न
अहं कुर्वती ईकार उक्तवती
अत्र प्रायः दीर्घ ईकारः एव किमर्थं चेत् कुर्वती इति शत्रन्तरूप बहुवचनरूपमस्ति किल एकनिमिषं
नदी
कुर्वती कुर्वती इति शत्रन्तरूपमस्ति किल दीर्घ ईकारः एव भवति अत्र ह्रस्व ईकारः न भवति समीचीनप्रश्नः अस्ति भगिनि अत्र दीर्घ ईकारः एव भवति किमर्थं चेत् कुर्वती इति शब्दः तत्तु शत्रन्तरूपमस्ति स्त्रीलिङ्गे अत्र प्रथमाविभक्ति एकवचनरूपमस्ति किल कुर्वती तत्तु अत्र तत्तु शत्रन्तरूपम् अस्ति स्त्रीलिङ्गे अतः दीर्घ ईकारः एव
धन्यवादः
समीचीनं अत्र कुर्वती योगः इति धन्यवादः भगिनि समीचीनप्रश्नः
गुणसन्धिः एतानि उदाहरणानि परिशीलयत न योग इङ्गते नेङ्गते अत्र अकार ईकार तयोः स्थाने एकार आदेश आगच्छति नेङ्गते च योग ईष्या अकार ईकारस्थाने एकार आगच्छति चेष्याः इति चेष्या दृष्ट्वा योग इमम् आकार ईकारस्थाने एकार दृष्ट्वेमं बालिका ईक्षते आकार ईकारस्थाने एकार बालिकेक्षते एतेषु उदाहरणेषु अयोग ए अयोग ईकार आयोग इकार आयोग दीर्घ ईकार इति द्वौ द्वौ वर्णौ स्तः तत्र द्वयोः द्वयोः वर्णयोः स्थाने एकार इत्यादेश सम्पन्नः अस्ति अत्र अकार वा आकार प्रथमपदस्य अन्ते अस्ति ईकार वा ईकार द्वितीयपदस्य आदौ अस्ति तयो मेलनेन द्वयोः वर्णोः स्थाने एकार आदेश भवति गुण एकारगुण आगच्छति
गुणः आगच्छति अस्तु भगिनि अत्र इदानीं विद्याभगिनी भवती करोति वा?
हा, एतानि उदाहरणानि परिशीलयत। विनद्य योगः उच्चैः, विनद्य इति पदस्य अन्ते अकारः अस्ति, उच्चैः इति द्वितीयपदस्य आदौ उकारः अस्ति, अकारः योगः उकारः ओकारः आदेशः भवति विनद्योच्चैः इति। त्यक्त्वा योगः उत्तिष्ठ, त्यक्त्वा अत्र पदस्य अन्ते आकारः अस्ति, उत्तिष्ठ द्वितीयपदस्य आदौ उकारः अस्ति, आकारः योगः उकारः ओकारः आदेशः भवति त्यक्तोत्तिष्ठ। च योगः ऊर्ध्वं, च इति पदस्य अन्ते अकारः अस्ति, ऊर्ध्वम् इति पदस्य आदौ ऊकारः अस्ति, अकारः योगः ऊकारः ओकारः आदेशः भवति चोर्ध्वम् इति रूपम्। एतेषु उदाहरणेषु अकारः योगः उकारः, आकारः योगः उकारः, अकारः योगः ऊकारः इति द्वौ द्वौ वर्णौ स्तः, तत्र द्वयोः द्वयोः वर्णयोः स्थाने ओकारः ओकारः इत्यादेशः सम्पन्नः अस्ति। एतेषु उदाहरणेषु वयं दृष्टवन्तः अकारः अथवा आकारः, अनन्तरम् उकारः अथवा ऊकारः अस्ति चेत् द्वयोः स्थाने ओकारः, त्रयोः स्थाने ओकारः आदेशरूपेण आगच्छति गुणसन्धि इति।
गुणसन्धि अस्तु भगिनि, इदानीं राधिका भगिनी भवती करोति वा?
अस्तु, एते उदाहरणे परिशीलयत। मम योगः ऋणम्, अकार ऋकार योगे अर् भवति ममर्णम् इति। महा ऋषयः, प्रथम पदस्य अन्तिमवर्णः अस्ति आकारः, द्वितीयपदस्य आदौ ऋकारः, आकारः ऋकारः योगे अर् भवति। एतयोः उदाहरणयोः अकार ऋकार आकार ऋकार इति द्वौ द्वौ वर्णौ स्तः, तत्र द्वयोः द्वयोः वर्णयोः स्थाने अर् इत्यादेशः सम्पन्नः अस्ति। अत्र उक्तमस्ति अकार वा आकार वा, अनन्तरं ऋकारः योगं योगः भवति चेत् अपि अर् एव भवति। सो इति उच्यते अत्र गुणसन्धिः इति।
तदेव कोष्टके अपि अस्ति किल,
कोष्टके अपि अस्ति, परन्तु कोष्टके अन्यविषयः उक्तमस्ति अकार आकार योग नृकार अस्ति चेत् अल् अस्ति अत्र,
अत्र अल् भवति इति अपि। अत्र अग्रे अपि पठति वा गुणः इति?
अस्तु, गुणः इति काचित् संज्ञा, ए ओ अल् अल् इत्येते गुणसंज्ञां प्राप्नुवन्ति। अस्मिन् सन्धौ एते वर्णाः आदेशाः भवन्ति, अतः गुणसन्धिः इति अस्य नाम। गुणः इति संज्ञा इति गुणवर्णाः ए ओ अल् अल् इति दत्तमस्ति। अस्मिन् सन्धौ एते वर्णाः आदेशः भवन्ति इति,
अतः गुणसन्धि इति
नाम।
अस्तु, यद्यपि अत्र सारल्यार्थं गुणः इति संज्ञाविषये अत्र एकारः ओकारः अर् अल् एते गुणसंज्ञा प्राप्नुवन्ति इति दत्तमस्ति, यद्यपि अर् अल् दत्तमस्ति, परन्तु वयं जानीमः अत्र करपत्रे एकं सूत्रमस्ति गुणसन्धिः इति, अत्र भवती एव पठतु भगिनि।
अस्तु, गुणसन्धिः अदेङ्गुणः, ह्रस्व अकारः एकारः ओकारः एङ् एते येषां वर्णानां गुणसंज्ञा स्यात्। अत्र अकारः अपि दत्तमस्ति, अकार एकार ओ ओकारः येषां वर्णा गुणसंज्ञा इति सन्ति दत्तमस्ति अत्र। अत् एञ् च गुणसंज्ञा स्यात् इति, अत् इति सूत्रं नास्ति, परन्तु अत् इति यत् जानीमः चेत् अत् इति अवर्णः एव, ह्रस्व अकारः एव, दीर्घ अकारः पृथः नास्ति इति। अत् च एङ् च अदेङ् अत् अथवा
एङ् इत्युक्ते एङ् इत्युक्ते किं
ए ओ ए अथवा ओ वर्णाः वर्णौ च अदेङ् इति संज्ञा भवति। अदेङ् प्रथमान्तं, गुणः प्रथमान्तं, द्विपदम् इदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्, अत् एङ् गुणः इति सूत्रं वदति। इत्युक्ते ह्रस्व अकारः ए ओ इति गुणाः इति उच्यते अत्र,
गुणसंज्ञकवर्णाः
ए वर्णः ओ वर्णः ए गुणसंज्ञा वर्ण गुणाः वर्णः
गुणवर्णाः
गुणवर्णाः गुणसंज्ञकवर्णः
गुणसंज्ञकवर्णः। अत्र यद्यपि पुस्तके अर् अल् इति दत्तमस्ति गुणसंज्ञकवर्णद्वयमिति, परन्तु अत्र वयं सूत्रात् पाणिनेः सूत्रं वदति अदेङ् गुणः इति, इत्युक्ते ह्रस्व अकारः एव गुणः इति। अस्तु, इति मनसि निधाय अग्रे सरेम, इदानीं पुनः परिशीलिष्यामः यदा सूत्रद्वयम् अत्र अस्ति, सूत्रद्वयं पठनानन्तरम् एकवारं पुनः अदेङ्गुणः इत्यस्य विषये अपि चर्चयिष्यामः। इदानीम् अत्र सरला भगिनी भवती आद्गुणः इति पठति वा?
अस्तु, आद्गुणः अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञक एकादेशः स्यात्। अत्र अचि परे इत्यस्य इक्कि परे इति फलित अर्थः, यतः अकारात् अकार चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः इत्यनेन, अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च। आत् पञ्चम्यन्तं, गुणः प्रथमा अन्तं, द्विपदं सूत्रम्, एको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणसहितायाम्। अत आद्गुण अवर्णात् अचि परे पूर्वपरयोस्थाने गुणसंज्ञक एकादेशः स्यात्। अत्र अवर्णात् इत्युक्ते माहेश्वरसूत्राणि इत्युक्ते अकार आकार वा प्लुत दीर्घ आकार प्लुत वर्ण अवर्णात् अचि परे, तस्य परे यदि अचि अन्यस्वर अस्ति पूर्वपरयोः स्थाने परयोः योजनेन तस्य एकादेश तस्य गुणस्य एकादेशः स्यात्। अत्र अचि परे फलितम् अस्ति इकि परे, कारणमस्ति अच् प्रत्याहारे आगच्छति अ ए उ ल ए औ ए औ। यदि अकार आगच्छति अकारस्य परे अकार भवति तत् भवति अक सवर्णे दीर्घ तत् सूत्रस्य प्रसक्तिः भवति। अत्र अक सवर्णे दीर्घ तस्य बाधितम् अस्ति आगुणस्य अकार न आगच्छति तत्र अकारफलितं न भवति। एकार ओकार यदि भवति तत्र वृद्धिरेचि सूत्रं कार्यं करोति। सो अत्र एकार ओकार अपि एकार ओकार ऐकार ओकार तत्र अपि फलितं न भवति। अतः इ उ ऋल् इकि इति फलितम् अर्थम् अस्ति अचि परे एतस्मिन् सूत्रे। सो अवर्णात्
अनुवृत्तिसहितसूत्रं पठति वा।
आत् अचि पूर्वपरयोः एकः गुणः सहितायाम् आत् पञ्चमे अन्तम् आत् अस्ति अकार तस्य अर्थमस्ति अकार दीर्घ आकार वा प्लुत अकार तस्य परे यदि अचि वर्ण अस्ति स्वर वयम् अत्र दृष्टवन्तः अचि इकि पूर्वपरयोः तस्य स्थाने एकगुणः एकगुणः सन्धिविषये सहितायाम् इति सन्धिविषये एकगुण आदेशः भवति पूर्वपरयोः स्थाने। सो एकगुणः अतिगुण तस्य अकार ह्रस्व अकार एकार वा ओकार एतत्।
इदानीम् अत्र विद्याभगिनी अत्र अकार इकारयोर्मेलनेन गुणः भवति गुणवर्णः कः अत्र किमर्थं तथा इति अकार इकारयोः मेलनेन अत्र एकारः गुणवर्णः भवति। कथं जानीमः अत्र इकारस्य गुणः एकारः भवति इति?
स्थानेन्तरतमः इति सूत्रेण वा
चिन्तयतु। स्थानेन्तरतमः भवति वा अत्र?
न अन्यसूत्रम् अस्ति इदानीं न स्मरामि। यथासङ्ख्यमनुदेशसमानम्
यथासङ्ख्यमनुदेशसमानम् अत्र तथा भवति वा? प्रायः स्थानेन्तरतमः इत्येव अत्र अत्र अकारस्य स्थानं किम्? कण्ठः। इकारस्य स्थानम्?
इकारस्य स्थानं तालु।
एकारस्य स्थानम्?
एकारस्य कण्ठतालु।
कण्ठतालु तथा साम्यमस्ति किल। अकारस्य कण्ठः इकारस्य तालुः एकारस्य कण्ठतालुः अतः इकारस्य गुणः एकारः भवति। उकारस्य गुणः
ओष्ठः ओ अकारः कण्ठ्यः उ ओष्ठः ओ कण्ठ ओष्ठः अतः साम्यमस्ति अत्र साम्यमस्ति।
इदानीं ऋकारस्य किं करिष्यामः?
अकारः कण्ठः कण्ठ्यः ऋकारः मूर्धा आदेशः अत्र गुणसंज्ञकः मूर्धा किमपि नास्ति अतः कण्ठ्यः आकारः आदेशः आगच्छति तदनन्तरं
इदानीम् अग्रे पठतु भगिनि अत्र उरन् रपरः इति पठतु।
उरन् रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः स्यात्। ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यम्। रः परो यस्य सः रपरः, उः षष्ट्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम्। स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् उः स्थाने अण् रपरः। उरण् रपरः इति विधायकसूत्रम् अस्ति। यदि ऋकारस्य स्थाने यदि अण् आदेशः भवति, अण् प्रत्याहारे अ इ उ इति अस्ति, अ इ उ इति वर्णः, यदि अण् प्रत्याहारस्य कश्चन वर्णः आदेशरूपेण आगच्छति चेत् तदा सः अण् सदा रेपः भवति। यदि यदि आकारः आदेशः अस्ति चेत् तदा तस्य अनन्तरं रेपः आगच्छति, अतः अर् भवति। यदा ईकारः आदेशः आगच्छति चेत् इर् भवति, उकारः आगच्छति चेत् उर् भवति। ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति अस्ति, तत् अहं किम् इति न जानामि, परन्तु अनन्तरं रः परो यस्य सः रपरः, यथा वयं पूर्वं दृष्टवन्तः तपरः इत्युक्ते सः पर तपरः इति, सः पर यस्य सः तपरः, तथा एव रः पर यस्य सः रपरः इत्युक्ते कश्चन वर्णस्य अनन्तरं रेपः अस्ति चेत् रपरः। उः षष्ट्यन्तम्, अण् प्रथमान्तं, रपरः प्रथमान्तं, त्रिपदमिदं सूत्रम्। अनुवृत्तिसहितसूत्रम् उः स्थाने अण् रपरः। उः इति षष्ट्यन्तम् इत्युक्ते यदा वयं पिता इति ऋकारान्तपदं स्वीकुर्मः तदा तस्य षष्ट्यन्तरूपं पितुः इति अस्ति, तथा एव अत्र उः इति अस्ति। उः षष्ट्यन्तम् इत्युक्ते आदेशः, स्थाने अण् रपरः तदेव ऋकारस्य स्थाने यदा अण् भवति तदा तद् सः अण् रपरः स्यात् इति अस्ति।
इदानीम् आद्गुणः इत्यस्मात् अकारऋकारयोर्मेलनेन कः वर्णः भवितुम् अर्हति इदानीं द्वयोः सूत्रयोः आधारेण? यदि अकारऋकारयोः मेलनेन अकारः भवति चेत् सः अकारः किं भवति? रपरः भवति इत्युक्ते अनन्तरम् अर् भवति। इदानीं रेपः अस्ति अत्र, रेपः कीदृशवर्णः?
मूर्धन्यवर्णः।
ऋकारः कीदृशवर्णः?
मूर्धन्यवर्णः, अतः साम्यमस्ति।
अतः साम्यमस्ति, अतः अत्र अतः एव अत्र अकारऋकारयोर्मेलनेन यदि गुणवर्णः अकारः अस्ति चेदेव सः अकारः उरण्परः इत्यनेन रपरः भवति, अतः अत्र मूर्धन्यवर्णः आगच्छति, नो चेत् तथा न भवति। यदि एकारः वा ओकारः वा आगच्छति चेत् अत्र कोऽपि रपरः इत्यस्य प्रसक्तिः एव नास्ति, अतः ऋकारस्य गुणवर्णः अकारः एव। किमर्थं चेत् उरण्परः इत्यनेन यदा अकारः आदेशः भवति सः अकारः रपरः भवति, इत्युक्ते अर् भवति, सः तद् मूर्धन्यवर्णः, कण्ठमूर्धन्यः भवति, किल? ऋकारः मूर्धन्यवर्णः, अकारः कण्ठ्यवर्णः, अर् अत्र अकारः कण्ठ्यवर्णः, रेपः मूर्धन्यः, अत्र पुनः साम्यमस्ति, अतः ऋकारस्य गुणवर्णः अकारः एव। यद्यपि पुस्तके दत्तमस्ति अर् अल् इति, ऋकारस्य गुणः अर् इति, ऋकारस्य गुणः अल् इति, परन्तु अत्र सारल्यार्थमेव दत्तमस्ति, यथा महोदयः अपि च रक्षाभगिनी वर्गे उक्तवन्तौ, परन्तु व्याकरणरीत्या अत्र ऋकारस्य गुणवर्णः अकारः एव, तथा एव ऋकारस्य गुणवर्णः अकारः एव। किमर्थं चेत् यथा अकारः आगच्छति सः अकारः पुनः उरन्रपरः इत्यनेन अत्र लकारः अपि आगच्छति। अत्र यद्यपि सूत्रे उरन्रपरः इति रपरः इति दत्तमस्ति, अत्र अन्यवार्तिकमस्ति, अत्र लकारः अपि आगच्छति इति। तदर्थमेव अत्र आयोगः ऋकारः अल् भवति, आयोगः ऋकारः अर् भवति। अत्र कोऽपि प्रश्नः अस्ति वा
महोदय? वयं उरण्परः इति सूत्रं पठितवन्तः, परन्तु लकारः कथम् आगच्छति, तस्य सूत्रं किम् अस्ति महोदय?
अत्र किं किमपि अद्य अहं प्रयत्नं कृतवान्, पूर्वं दृष्टवान् अहं, परन्तु इदानीं मम पार्श्वे नास्ति, पुनः एकवारं दृष्ट्वा वदामि। अत्र किमपि वार्तिकमस्ति अथवा वैयाकरणस्य किञ्चित् किमर्थं भाष्यमस्ति तस्मिन् विषये, यद्यपि उरन्रपरः इति दत्तमस्ति, अत्र तद् लकारमपि स्वीकरोति इति किञ्चित् दत्तमस्ति। इदानीम् अद्य सायङ्काले अहं प्रयत्नं कृतवान्, कुत्र दृष्टवान् इति न प्राप्तवान्, यदा प्राप्नोमि तथा वदामि, नो चेत् स्वस्तनवर्गे रक्षाभगिन्यां पृच्छामः।
अस्तु महोदय, धन्यवादः।
अस्तु, अत्र कोऽपि प्रश्नः अस्ति वा इदानीम् अत्र गुणसन्धिविषये?
महोदय, मया क्लेशः भूयते यदा अण् रपर भव अण् तस्य स्थाने रपर स्यात् अण्युक्ते अ इ उ रैट्, यदि वयम् अ स्वीकुर्मः तस्य स्थाने
रेफ भवति, न तस्य स्थाने न भवति, अकारस्य स्थाने रेप न भवति, सः अकारः किं भवति? विद्याभगिनी भवती प्रयत्नं करोति एकवारं प्रतिपादयति।
रेपः अन् स्थाने न भवति, यदा अण् आदेशः भवति तदा यदि अण् प्रत्याहारे यदि अकारः स्वीकुर्मः उरण्परः इति सूत्रेण अकारस्य अनन्तरं रेपः आगच्छति, अतः अर् इति भवति। अण् आदेशः एतावत् तिष्ठति, तदनन्तरम् आगच्छति,
तदनन्तरम् आगच्छति। धन्यवादः।
अतः अत्र रपरः इति दत्तमस्ति खलु भगिनि, अत्र सूत्रे रपरः इति दत्तमस्ति। रपरः इत्युक्ते अत्र पश्यतु द्वितीयं तृतीयवाक्यमस्ति किल, रः परः यस्य सः इत्युक्ते अकारात् परः रेपः भवति इति, अकारः रपरः भवति इत्युक्ते अकारात् परः रेपः आगच्छति, तस्य आदेशः भवति, तस्य आगमः आदेशः किमपि अत्र आगमः एव वक्तुं शक्नुमः। किमर्थं चेत् अत्र नूतनवर्णः आगच्छति, कोऽपि वर्णः न अपगच्छति किल, यदा अन् आदेशः भवति रेपः अत्र आगत्य अकारात् परः रेपः आगत्य तिष्ठति अत्र। इदानीं समीचीनं वा भगिनि?
अस्तु अस्तु, या धन्यवादः
महोदय। अतः अत्र रपरः प्रथमान्तम् अत्र आगमः इति वदामः वा?
तथा एव चिन्तयामि, किमर्थं चेत् अत्र कोऽपि वर्णः न अपगच्छति किल, कस्यचित् स्थाने न आगच्छति, नूतनतया आगत्य तिष्ठति अत्र, मित्ररूपेण आगच्छति किल, अतः प्रायः आगमः एव वक्तुं शक्नुमः, शत्रुरूपेण आगच्छति किल, अत्र कोऽपि वर्णस्य स्थाने न आगच्छति, तथा एव आगत्य तिष्ठति किल, अतः प्रायः आगमः एव वक्तुं शक्नुमः
महोदय। परन्तु अत्र मम ऋणम् इति उदाहरणे अयोगः ऋ अस्ति खलु, अस्थाने आ एव तिष्ठति.
सूत्रं पठतु. तथा न, आद्गुणः इति सूत्रम् एकवारम् अनुवृत्तिसहितसूत्रं पठतु एकवारम्. आद्गुणः इत्यस्य अनुवृत्तिसहितसूत्रं पठतु.
आत् अचि पूर्वपरयोः एकगुणः संहिता. पूर्वपरयोः
पूर्वपरयोः अकार ऋकारयोः द्वयोः स्थाने किं भवति, द्वयोः स्थाने एकः गुणः. कः वर्णः इदानीम्?
अगुणः
इति भवति. सः अकारः किं भवति इदानीं? सः अकारः ऋकारस्य स्थाने आगतः. किमर्थम् इत्युक्ते सः अकारः ऋकारस्य स्थाने आगतः. यद्यपि अकार ऋकारयोः द्वयोः स्थाने आगतः,
द्वयोः स्थाने
तदापि ऋकारस्य स्थाने वक्तुं शक्नुमः किल. अतः ऋकारस्य स्थाने यः अकारः आगतः सः अकारः इदानीं रपरः भवति. इत्युक्ते सः अकारः अर् भवति इति. अत्र एतदपि वक्तुं शक्नुमः भगिनि, अकार आदेशः अर् भवति इति. इत्युक्ते अर् इति आदेशः अपि वक्तुं शक्नुमः. तथापि भवितुम् अर्हति किल. परन्तु अत्र अकारस्य स्थाने अर् आदेशः भवति इति. सः अकारः रपरः भवति इति अत्र दत्तमस्ति. यदि अकारस्य स्थाने अर् भवति वा अकारात् परः रकार रेपः भवति वा, परन्तु अत्र अन्ततो गत्वा अकारः अर् भवति इति. इदानीम् एकं करिष्यामः, एकम् सवर्णदीर्घसन्धेः उदाहरणं स्वस्य उदाहरणम्, एकं गुणसन्धेः स्वस्य उदाहरणं श्रुत्वा समापयिष्यामः अद्य वर्गः.
अहं वदामि वा?
वदतु भगिनि.
देवयोगः आलयः देवालयः. अग्रिम उदाहरणं रामयोगः ईश्वरः रामेश्वरः.
एकमस्ति सवर्णतीर्थसन्धेः, द्वितीयमस्ति गुणसन्धेः. अस्तु भगिनि. सरला भगिनी, राधिका भगिनी,
गीतायोग्य अध्ययनं गीताध्ययनं सवर्णदीर्घ यथायोग उदाहरणं यथोदाहरणं गुणसन्धि. अस्तु, अस्ति इति चिन्तयामि, अस्ति इति चिन्तयामि सवर्णदीर्घसन्धि तत्तु. न इच्छामि नेच्छामि
इच्छामि नेच्छामि बहु समीचीनं भगिनि. अत्र इदानीं पर्यन्तम् अत्र सवर्णदीर्घसन्धेः विषये अपि च गुणसन्धेः विषये अपि च सूत्राणां विषये कोऽपि प्रश्नः अस्ति चेत् अवश्यं पृच्छतु भगिनि, प्रयत्नं करिष्यामि. नो चेत् विरमामः.
बहु धन्यवादः.
धन्यवादः. शुभरात्रिः.
शुभरात्रिः.
शुभरात्रिः. धन्यवादः. शुभरात्रिः.